एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण संविधान संशोधनस्य विमर्शनपत्रस्य निर्मातुः गत विक्रम वर्षीयस्य कार्यदलस्य माध्यमेन संविधान संशोधनस्य औपचारिक गृहकार्याय तीव्रता प्रदत्तास्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य राजनीतिक परामर्शदातुः असीम शाहस्य संयोजकत्वे विद्यमानेन संविधान संशोधनस्य विमर्शनपत्रस्य निर्मातृणा कार्यदलेन यो वरिष्ठाधिवक्तृभिः अधिवक्तृभिश्च सह विमर्शनम् विहितम् वर्तते। संविधानस्य क्रियान्वयनस्य आसन्न दशवर्षाणाम् प्राप्तेः पश्चात् अधुनावधि प्राप्तानुभवान् समाह्वयान् जनाकांक्षाम् च समाविश्य सुदृढ विमर्शनपत्रस्य निर्माणस्य उद्देश्येन कार्यदलेन विज्ञानाम् परामर्शनानाम् संकलनाय तीव्रता प्रदत्तास्ति। विमर्शने सहभागिभिः वरिष्ठाधिवक्तृभिः अधिवक्तृभिश्च संविधानस्य सबलपक्षस्य रक्षणम् कृत्वा सम्प्रति दृष्टाम् व्यावहारिकीम् जटिलताम् समापयितुम् बलम् प्रदत्तमासीत्। विमर्शने वरिष्ठाधिवक्तारः चन्द्रकान्त ज्ञवाली, ध्रुवलाल श्रेष्ठ, बाबुराम कुंवर, खिमलाल देवकोटा, प्राध्यापक डा ज्ञानेश्वर पराजुली, अधिवक्तारः मोहन अन्सारी, वरिष्ठाधिवक्तारा राम नारायण तिवारी, डा दिनमणि पोखरेलश्च विचारम् व्यक्तवन्तः। विमर्शने कार्यदलस्य संयोजकः असीम शाह, वरिष्ठाधिवक्तृभ्य अधिवक्तृभ्यश्च प्राप्तानि परामर्शनानि गभीरतापूर्वकम् गृहीतानि सन्ति। अनेन विमर्शनेन आगामि दिनेषु निर्मात्स्यमानम् संविधान संशोधनस्य विमर्शनपत्रम् वस्तुनिष्ठम्, व्यावहारिकम्, समृद्धम् च विधातुम् सहयोगो भविष्यतीति विश्वासम् व्यक्तवान्। मन्त्रिपरिषदः गत विक्रम वर्षस्य चैत्र मासस्य षोडश दिवसस्य निर्णयस्य अनुसारेण संगठितेन कार्यदलेन अस्यैव वैशाखस्य दशम दिवसस्य उपवेशस्य निर्णयस्य अनुसारेण परामर्श प्रक्रियेयम् अग्रेसारिता अस्ति। कार्यदलेन अधुनावधि विहिते विमर्शने शासकीय स्वरूपस्य परिवर्तनम् कृत्वा प्रत्यक्ष निर्वाचित कार्यकारिणः, राष्ट्रपतेः, विज्ञमन्त्रिणाम्, सांसदेतर व्यक्तिनाम् मन्त्रिपदे आरूढतायाः, मन्त्रिपरिषद संघटनस्य, निर्वाचन प्रणाल्या, विदेशेषु विद्यमानानाम् नागरिकाणाम् मताधिकारस्य च विषयेषु परामर्शनम् प्राप्तम् वर्तते। सर्वकारेण राज्यस्य सीमित स्रोतः साधनानाम् वर्षेभ्यः विद्यमानस्य दोहनस्य, प्राशासनिका व्यवस्थायाश्च अन्ताय सुशासनस्य कठोरम् कार्यम् अग्रे चालितमस्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य विमर्शनेन निर्देशनेन प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन प्रचलित विधेः विपरीततया कस्यापि उच्च पदाधिकारिणः प्रभावेण सर्वकारीय यातायात साधनानाम् सौविध्यम् गृहीतवद्भ्यो व्यः कर्मचारिभ्यः पदाधिकारिभ्यश्च यातायात साधनानाम् प्रतिग्रहणस्य प्रक्रिया प्रारब्धा अस्ति। कार्यालयेन अधुनावधि विभिन्न मन्त्रालयेभ्य, अन्तर्गत निकायेभ्य, सांविधानिक आयोगेभ्यश्च द्वाविंशत्यधिक षट्शतम् यातायात साधनानि प्रतिगृहीतानि वर्तन्ते। सभामुखेन डोलप्रसाद अर्यालेन सह नेपालस्य कृते चीनदेशीयेन राजदूतेन चाङमाओमिङ इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। पूर्वेद्युः विहिते मेलने देशद्वयस्य मध्ये द्विपक्षीय सम्बन्धस्य, संसदीय सहकार्यस्य, विकास सहकार्यस्य च विभिन्नेषु विषयेषु विचारस्य आदान प्रदानम् विहितमासीत्। मेलनस्य क्रमे सभामुखः अर्यालः एक चीन नीतिम् प्रति नेपालस्य पूर्व प्रतिबद्धताम् आवर्त्य नेपालस्य भूमि चीनदेशस्य विरूद्धे प्रयोगः कर्तुम् न दीयते इत्यत्र सर्वकारः स्पष्टोऽस्तीति अगदत्। मेलने चीनदेशीय राजदूतः माओमिङ, राष्ट्रिय जनकांग्रेस दलस्य पक्षतः शुभकामना सन्देश वर्धापनम् च हस्तान्तरितवान् आसीत्। पेयजल मन्त्री निशा मेहता भासते गतिहीनानाम् पेयजलायोजनानाम् सक्रियकरणस्य प्रक्रिया सर्वकारस्य प्राथमिकतायाम् वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः पूर्वाधार विकास समितेः पूर्वेद्युः उपविष्टे उपवेशे मन्त्री मेहता गतिहीनानाम् पेयजलायोजनानाम् नैरन्तर्येण अनुगमनम् विधीयमानम् वर्तते, आवश्यक वित्तस्य व्यवस्थापनस्य पश्चात् क्रियान्वयनस्य प्रक्रिया अग्रे वर्धते इति अवोचत्। चितवन राष्ट्रिय निकुञ्जस्य कार्यालयेन निकुञ्जस्य मध्यवर्ती क्षेत्रस्य अभ्यन्तरे विद्यमानानाम् अनधिकृत संरचनानाम् अतिक्रमणम् अपसारयितुं पञ्चदश दिवसीय सार्वजनिक सूचना प्रकाशितास्ति। निकुञ्ज प्रशासनेन निकुञ्जस्य अभ्यन्तरे विद्यमानानाम् मार्ग नदी खोला नदी वन क्षेत्राणाम् तटीय भागेषु अवैध रूपेण निर्मिताः संरचनाः कृषिम् च रिक्तीकर्तुम् अपसारयितुम् च निर्दिष्टमस्ति। निकुञ्जस्य सूचनाधिकारिणः अविनाश थापा मगर इत्यस्य अनुसारेण निकुञ्ज क्षेत्रस्य अभ्यन्तरे अतिक्रमणम् कृत्वा अनधिकृत रूपेण गृहाणि कुटीराणि मनोरञ्जन स्थलानि च निर्मितानि सन्ति इति कारणेन एवं सूचना प्रकाशितास्ति इति। जलवायु विज्ञान विभागेन अद्य सायंकालात् देशस्य विभिन्नेषु क्षेत्रेषु तीव्रगतेः वायुनाश मेघगर्जनम् वज्रपात हिमपात वृष्टिश्च सम्भवन्तीति उल्लिख्य सावधानताम् अवलम्बितुम् सर्वे अनुरुद्धाः वर्तन्ते। विभागस्य जलवायुविदः संजीव अधिकारिणः अनुसारेण अद्य सायंकालात् सुदूरपश्चिम प्रदेशस्य डडेलधुरा डोटी जनपदयोः लुम्बिनी प्रदेशस्य बर्दियाबांके दाङ अर्घाकाँची जनपदेषु मधेस प्रदेशस्य धनुषाबारा जनपदयोः कोशी प्रदेशस्य मोरङ जनपदे निकटस्थ अन्येषु जनपदेषु च तीव्र झञ्झावातस्य सम्भावना अस्ति इति समाचाराः।